गणायां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आनः शृण्वन्नोतिभिः सेदसाधनम् प्रणो देवी सरस्वती वाजिनीवते देनाम वित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातैष शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृणया याते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभि चाकशे यामिषम् गिरिशन्तास्ते बिभर्षस्तवे शिवाम् गिरित्रताम् कुरु मारिगुम् से पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्चा वदामसे यता नः सर्वमिज्जगत यक्ष्मगुम् सुमना असत् अद्य वोचदति वक्ता प्रथमो दैव्यो भिषक् अयेदश्च सर्वाञ्जम् वयम् सर्वास्य यातु धान्यः असौ यस्ताम्रो अरुण उत वप्रस्सु मङ्गलः ये देवागुम् रुद्र अभितो दिक्षुश्रुता सहस्रशो वैशागुम् हेडहीमहे असव्यो वदत्पति नीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नदहार्यः उदैनम् विश्वाभूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अधो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोराज्ञयोर्जा याश्च ते हस्त इषवः पराता भगवो वप अवतत्य धनुस्वगुम् सहस्राक्षशतेषु दे निशीर्य शल्याणामुका शिवो नः सुमना भव विज्यन्दनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आभुरस्य निषङ्गतिः याते हेतिर्मीडुश्च महस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधाय नादताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्वृणत्तु विश्वतः अतो यैषु दिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యబాహవే సేనాన్యే దిశాం చ పతయే. నమో నమో వృక్షేభ్యో హరికేశేభ్యః పశూనాం పతయే. నమో నమః సత్పింజలాయ త్విషీమతే పతీనాం పతయే. నమో నమో బభ్లుషాయ వివ్యాదినేనానాం పతయే. నమో నమో హరికేశాయోపవీతినే పుష్టానాం పతయే. నమో నమో భవస్య హేత్రే జగతాం పతయే. నమో నమో రుద్రాయ దతావిని క్షేత్రాణాం పతయే. నమో నమః సూతాయ హంత్యాయ వనానాం పతయే. నమో నమో రోహితాయ తపతయే వృక్షాణాం పతయే. నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే. నమో నమో భువంతయే వాళివత్కృతాయ ఔషధీనాం పతయే. నమో నమ ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే. నమో నమ కృష్ణవీతాయ ధావతే సత్వనాం పతయే. నమః నమస్తమానాయ నివ్యాదిన ఆవ్యాదినీనాం పతయే. నమో నమః కగుభాయ నిషంగిణే స్థేనానాం పతయే. నమో నమో నిషంగిణ ఇషుధిమతే తస్కరాణాం పతయే. నమో నమో వంచతే పరివంచతే స్థాయూనాం పతయే. నమో నమో నిచేరవే పరిచరాయారణ్యానాం పతయే. నమో నమ శ్రీకామిభ్యో జిగాదుం సద్భ్యోముష్ణతాం పతయే. నమో నమో జిమద్భ్యో నక్తం చరద్భ్య ప్రకృంతానాం పతయే. నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే. నమో నమ ఇషుమద్భ్యోదన్వామిభ్యశ్చ వో నమో నమ ఆదన్వామేభ్య ప్రతిదధానేభ్యశ్చ వో నమో నమ ఆయచ్చద్భ్యో విసృజభ్యశ్చ వో నమో నమోస్యద్భ్యో విద్యభ్యశ్చ వో నమో నమ ఆసీనేభ్యశ్చయానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమస్తిష్టద్భ్యో దావభ్యశ్చ వో నమో నమ సభాభ్యస్తవాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః. నమ ఆవ్యాదినేభ్యో విమిధ్యంతేభ్యశ్చ వో నమో నమ ఉగణాభ్యస్త్రిగం పతేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపతిభ్యశ్చ వో నమో నమో వ్రాతేభ్యో వ్రాతపతిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః శుల్లకేభ్యశ్చ వో నమో నమో రతిభ్యో రతేభ్యశ్చ వో నమో నమో రతేభ్యో రతపతిభ్యశ్చ వో నమో నమ సేనాభ్యస్తేనాలిభ్యశ్చ వో నమో నమః. శత్రుభ్యస్తంగ్రహీతృభ్యశ్చ వో నమో నమ స్వక్షభ్యోలతకాలేభ్యశ్చ వో నమో నమ కులాలేభ్యః కర్మాలేభ్యశ్చ వో నమో నమ పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయోభ్యశ్చ ಅಶ್ವನಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಶ್ವಭ್ಯಶ್ವಪತಿಭ್ಯಶ್ಚ ವೋ ನಮಃ ನಮೋ ಭವಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಶರ್ವಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮೋ ನೀಲಗ್ರೀವಾಯ ಚ ಶಿತಿಕಂಠಾಯ ಚ ನಮಃ ಕಪರ್ತಿನೇ ಚ ಯುಕ್ತಕೇಶಾಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಯ ಚ ಶತಧನ್ವನೇ ಚ ನಮೋ ಗಿರಿಶಾಯ ಚ ಶಿಬಿವಿಷ್ಟಾಯ ಚ ನಮೋ ಮೀಡುಷ್ಟಮಾಯ ಜೇಷುಮತೇ ಚ ನಮೋ ಹ್ರಸ್ವಾಯ ಚ ವಾಮನಾಯ ಚ ನಮೋ ಬೃಹತೇ ಚ ವರ್ಷೀಯಸೇ ಚ ನಮೋ ವೃತ್ತಾಯ ಚ ಸಂವೃದ್ವನೇ ಚ ನಮೋ ಅಗ್ರಿಯಾಯ ಚ ಪ್ರಥಮಾಯ ಚ ನಮಃ ಆಶವೇ ಚಾಚಿರಾಯ ಚ ನಮಃ ಶೀಘ್ರಿಯಾಯ ಚ ಶೀಭ್ಯಾಯ ಚ ನಮಃ ಓರ್ವ್ಯಾಯ ಚ ವತ್ಸನ್ಯಾಯ ಚ ನಮಃ ಶ್ರೋತಸ್ಯಾಯ ಚ ತ್ವೇಭ್ಯಾಯ ಚ ನಮೋ ಜ್ಯೇಷ್ಠಾಯ ಚ ಕನಿಷ್ಠಾಯ ಚ ನಮಃ ಪೂರ್ವಜಾಯ ಚ ಪರಜಾಯ ಚ ನಮೋ ಮಧ್ಯಮಾಯ ಚ ಪಗಲ್ಪಾಯ ಚ ನಮೋ ಜಗನ್ಯಾಯ ಚ ಪುತ್ನಿಯಾಯ ಚ ನಮಃ ಸೋಭ್ಯಾಯ ಚ ಪ್ರತಿಸರ್ಗ್ಯಾಯ ಚ ನಮೋ ಯಾಮ್ಯಾಯ ಚ ಕ್ಷೇಮ್ಯಾಯ ಚ ನಮಃ ಉತ್ಪರ್ಗ್ಯಾಯ ಚ ಕಲ್ಯಾಯ ಚ ನಮಃ ಶ್ಲೋಕ್ಯಾಯ ಚ ಅವಸಾನ್ಯಾಯ ಚ ನಮೋ ವನ್ಯಾಯ ಚ ಕಕ್ಷಾಯ ಚ ನಮಃ ಶ್ರವಾಯ ಚ ಪ್ರತಿಶ್ರವಾಯ ಚ ನಮಃ ಆಶುಷೇನಾಯ ಚಾಶುರತಾಯ ಚ ನಮಃ ಶೂರಾಯ ಚಾವಬಿಂದತೇ ಚ ನಮೋ ವರ್ಮಿಣೇ ಚ ವರೂದಿನೇ ಚ ನಮೋ ಬಿಲ್ವಿನೇ ಚ ಕವಚಿನೇ ಚ ನಮಃ ಶ್ರುತಾಯ ಚ ಶ್ರುತಸೇನಾಯ ಚ ನಮೋ ದುಂದುಭ್ಯಾಯ ಚ ಅನನ್ಯಾಯ ಚ ನಮೋ ಕೃಷ್ಣವೇ ಚ ಪ್ರಮಶಾಯ ಚ ನಮೋ ದೂತಾಯ ಚ ಪ್ರಹಿತಾಯ ಚ ನಮೋ ನಿಷಂಗಿನೇ ಚೇಷು ಧಿಮತೇ ಚ ನಮಃ ತೀಕ್ಷ್ಣೇಶವೇ ಚಾಯುಧಿನೇ ಚ ನಮಃ ಸ್ವಾಯುಧಾಯ ಚ ಸುಧನ್ವನೇ ಚ ನಮಃ ಶ್ರುತ್ಯಾಯ ಚ ಪತ್ಯಾಯ ಚ ನಮಃ ಕಾರ್ಯಾಯ ಚ ನೀರ್ಯಾಯ ಚ ನಮಃ ಸೋದ್ಯಾಯ ಚ ಸರಸ್ಯಾಯ ಚ ನಮೋ ನಾದ್ಯಾಯ ಚ ವೈಷಂತಾಯ ಚ ನಮಃ ಕೋಪ್ಯಾಯ ಚ ವಟ್ಯಾಯ ಚ ನಮೋ ವರ್ಷ್ಯಾಯ ಚ ವರ್ಷ್ಯಾಯ ಚ ನಮೋ ಮೇದ್ಯಾಯ ಚ ವಿದ್ಯುದ್ಯಾಯ ಚ ನಮಃ ಇಂದ್ರಿಯಾಯ ಚ ದಪ್ಯಾಯ ಚ ನಮೋ ವಾಕ್ಯಾಯ ಚ ರೇಷ್ಮಿಯಾಯ ಚ ನಮೋ ವಾಸ್ತವ್ಯಾಯ ಚ ವಾಸ್ತುಪಾಯ ಚ ಓಂ ಹರ 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 ಓಂ ನಮಃ ಸೋಮಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಸಾಮ್ರಾಯ ಚಾರುಣಾಯ ಚ ನಮಃ ಶಂಗಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮಃ ಉಗ್ರಾಯ ಚ ಭೀಮಾಯ ಚ ನಮೋ ಅಗ್ರೇವದಾಯ ಚ ದೂರೇವದಾಯ ಚ ನಮೋ ಹಂತ್ರೇ ಚ ಹರಿಯಸೇ ಚ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯೋ ನಮಸ್ತಾರಾಯ ನಮಃ ಶಂಭವೇ ಚ ಮಯೋಭವೇ ಚ ನಮಃ ಶಂಕರಾಯ ಚ ಮಯಸ್ಕರಾಯ ಚ ನಮಃ ಶಿವಾಯ ಚ ಶಿವತರಾಯ ಚ ನಮಃ ತೀರ್ಥ್ಯಾಯ ಚ ಕೋಲ್ಯಾಯ ಚ ನಮಃ ಪಾರ್ಯಾಯ ಚ ವಾರ್ಯಾಯ ಚ ನಮಃ ಪ್ರತರಣಾಯ ಚೋತ್ತರಣಾಯ ಚ ನಮಃ ಆದಾದ್ಯಾಯ ಚ ಲಾದ್ಯಾಯ ಚ ನಮಃ ಷಷ್ಟ್ಯಾಯ ಚ ಭೇಣ್ಯಾಯ ಚ ನಮಃ ಸಿಕತ್ಯಾಯ ಚ ಪ್ರವಾಹ್ಯಾಯ ಚ ನಮ ಇರಿಣ್ಯಾಯ ಚ ಪ್ರಪತ್ಯಾಯ ಚ ನಮಃ ಕಿಗುಂ ಶಿಲಾಯ ಚ ಶಯನಾಯ ಚ ನಮಃ ಕಪರ್ದಿನೇ ಚ ಪುಲಸ್ತಯೇ ಚ ನಮೋ ಗೋಷ್ಟ್ಯಾಯ ಚ ಗೃಹ್ಯಾಯ ಚ ನಮಸ್ತಲ್ಭ್ಯಾಯ ಚ ಗೇಹ್ಯಾಯ ಚ ನಮಃ ಕಾರ್ಯಾಯ ಚ ಗಪರೇಷ್ಟಾಯ ಚ ನಮೋ ಹೃದಯಾಯ ಚ ನಿವೇಶ್ಯಾಯ ಚ ನಮಃ ಪಾಗುಂ ಸವ್ಯಾಯ ಚ ರಜಸ್ಯಾಯ ಚ ನಮಃ ಶುಷ್ಕ್ಯಾಯ ಚ ಹರಿತ್ಯಾಯ ಚ ನಮೋ ಲೋಪ್ಯಾಯ ಚೋಲಭ್ಯಾಯ ಚ ನಮಃ ಊರ್ಜ್ಯಾಯ ಚ ಸೂರ್ಯಾಯ ಚ ನಮಃ ಪರ್ಣ್ಯಾಯ ಚ ಪರ್ಣಶದ್ಯಾಯ ಚ ನಮೋ ಪಗುರಮಾಣಾಯ ಚ ವಿಗ್ಧತೆ ಚ ನಮಃ ಆಖಿದತೆ ಚ ಪ್ರಖಿದತೆ ಚ ನಮೋ ವಕ್ಕಿರಿಕೇಭ್ಯೋ ದೇವಾನಾಗಂ ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೀಣಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ವಕ್ಕೇಭ್ಯೋ ನಮ ಆನಿರ್ಹತೆಭ್ಯೋ ನಮ ಆಮೀವಕ್ಕೇಭ್ಯಃ ದ್ರಾಭೇ ಅಂಧತಸ್ಪತೆ ದರಿದ್ರನ್ನೀಲಲೋಹಿತ ಯೇಷಾಂ ಪುರುಷಾಣಾಮೇಷಾಂ ಪಶೂನಾಂ ಮಾವೇರ್ಮಾರೋಮೋ ಯೇಷಾಂ ಕಿಂಚನ ಮಮತ್ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋ ಶಿವಾ ವಿಶ್ವಾಹಮೇಷಜಿ ಶಿವ ರುದ್ರಸ್ಯ ಮೇಷಜಿ ತಯಾನೋ ಮೃಡ ಜೀವಸೇ ಹಿಮಾಗುಂ ರುದ್ರಾಯ ತವಸೇ ಕಪರ್ದಿನೇ ಶಯದ್ವೀಲಾಯ ಪ್ರಮರಾಮಹೇ ಮತಿಂ ಯದಾನಶ್ಯಮಸತ್ವಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂ ಗ್ರಾಮೇ ಅಸ್ಮಿನ್ನನಾತುರಂ ಮೃಳಾನೋ ರುದ್ರೋದನೋ ಮಯಸ್ಕೃತಿ ಕ್ಷಯದ್ವೀಲಾಯ ನಮಸಾ ವಿಧೇಮತೇ ಯಚ್ಚಂ ಜಯೋಶ್ಚ ಮನುರಾಯ ಜೇ ಪಿತಾ ತದಶ್ಯಾಮ ತವ ರುದ್ರ ಪ್ರಣೀತೌ ಮಾನೋ ಮಹಾಂತಮುತಮಾನೋ ಅರ್ಭಕಂ ಮಾನ ಉಕ್ಷಂತಮುತಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ವದೇ ಪಿತರಂ ಮೋದ ಮಾತರಂ ಪ್ರಿಯಮಾನಸ್ತನುವೋ ರುದ್ರರೀರಿಷಃ ಮಾನಸ್ತೋಕೇತನ ಯೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಷು ರೀರಿಷಃ ವೀರಾನ್ ಮಾನೋ ರುದ್ರ ವಾಮಿತೋ ವದೀರ್ ಅವಿಷ್ಮಂತೋ ನಮಸಾ ವಿಧೇಮತೇ ಆರಾತೇ ಗೋಗ್ನ ಉತ ಪೂರುಷಗ್ನೇ ಶಯದ್ವೀರಾಯ ಸುಂ ನಮಸ್ಮೇತೇ ಅಸ್ತು ರಕ್ಷಾಜನೋ ಅಲಿ ಚ ದೇವ ಭ್ರೂಯದಾ ಚ ನ ಶರ್ಮ ಯಚ್ಚ ತ್ವಿಬರಹಾ ಸ್ತುಹಿ ಶ್ರುತಂ ಗರ್ತ ಸತಂ ಯುವಾನಂ ಮೃಗನ್ನ ಭೀಮಮುಪಹತ್ತು ಮುಗ್ರಂ ಮೃಳಾಜರಿತ್ರೇ ರುದ್ರಸ್ತವಾನೋ ಅನ್ಯಂತೇ ಅಸ್ಮನ್ನಿವ ಪಂತು ಸೇನಾ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇತಿರ್ವಿಡಕ್ತು ಪರಿತ್ವೇಷಸ್ಯ ದುರ್ಮತಿರಗಾಯೋ ಅವಸ್ಥಿರಾ ಭಗವದ್ಯಸ್ತನುಶ್ವಮೀಡಸ್ತೋಕಾಯತನಯಾಯ ಮೃಡಯ ಮೀಡುಶ್ಚ ಮಶಿವತಮಶಿವೋ ನ ಸುಮನಾ ಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ತಿಂ ವಸಾನ ಆಚರ ಪಿನಾಗಂ ವಿಪ್ರದಾಗಹಿ ವಿಕಿರಿತ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೆ ಸಹಸ್ರಗುಂ ಹೇತಯೋನ್ಯಮಸ್ಮನ್ನಿವ ಪಂತು ತಾಃ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರದಾ ಬಾಹುವೋತ್ಸವ ಹೇತಯಃ ಸಾಮೀಶಾನೋ ಭಗವಃ ಪರಾಚೀನಾ ಮುಖಾಕೃತಿ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರ ಅಧಿಭೂಮ್ಯಾ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೇ ವದನ್ ವಾನಿ ತನ್ಮಸಿ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ಣವೇಂತರಿಕ್ಷೇ ಭವಾದಿ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾ ಶರ್ವಾ ಅಲಃ ಶಮಾಚರಾಃ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾ ದಿವಗುಂ ರುದ್ರ ಉಪಶ್ರಿತಾಃ वृक्षेषु तस्मिन् जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विपतो जनान् ये पताम्पतिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति श्रिकावन्तो निषङ्गिनः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्तिरे तेषागुंसहस्रयोजने वदन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषवत्तेभ्यो दश प्राचे दश दक्षिणा दश प्रतिचेर्दशोदेचेर्दशोद्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् विश्वो यश्च नो देशितम् भोजम् भे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योन्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्व भुवनादिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मत्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् नन्दिरसि रुद्रो मा विशान्तकः धेनान्येनाप्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु यस्विषस्सुदन्वायो विश्वस्य क्षयदिवे सजस्य यक्ष्वा महेतौ मनसाय रुद्रम् नमो भिर्देवमसुरन्धुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्ववे सजोयगु शिवाभिवर्षणः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः युम्नैर्वाजेभिरागतम् वाजस्य मे प्रसवस्य मे प्रयतिश्च मे प्रचितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरस्य मे श्लोकस्य मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवस्य मे प्राणस्य मे अपानस्य मे व्यानस्य मे स्वस्य मे चित्तम् च मादितम् च मे वाक् च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मोजश्च मे सहस्य म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे सानि च मे परोगुंषि च मे शरीराणि च मे जयस्यम् च म आधिपत्यम् च मे मन्योश्च मे भामस्य मेमस्य मे भवस्य मे देवा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वश्मा च मे द्रायुया च मे वृद्धम् च मे वृद्धश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वरश्च मे त्रिशश्च मे क्रीडा च मे मोदस्य मे जातम् च मे जनिष्यमाणम् च मे सोक्तम् च मे सुकृतम् च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुखं च मे सुपथं च मरुद्धं च मरुद्धिश्च मे क्लुप्तं च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे क्षयं च मे मयश्च मे प्रियं च मे नो कामस्य मे कामस्य मे सौमनसस्य मे भद्रं च मे श्रेयस्य मे वस्यस्य मे यशस्य मे भगस्य मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमस्य मे द्रतस्य मे विश्वं च मे महस्य मे संवेच्य मे ज्ञात्रं च मे सोऽस्य मे प्रसोऽस्य मे शीलं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे रामयश्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुखं च मे शयनं च मे शोषा च मे सुदिनं च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्धश्च मे सपेतश्च मे कृशश्च मे वृष्टश्च मे जैत्रं च मोद्यं च मे रयश्च मे रायश्च मे पुष्टं च मे पुष्टश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवास मे नरं च मे स्वस्य मे विहयश्च मे यवाश्च मे माशाश्च मे तिराश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मथुराश्च मे प्रियङ्गवश्च मे नवश्च मे शामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे वीरुरश्च म औषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तं च मे वित्तश्च मे भूतं च मे भूतश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पोषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्योश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मोद्रा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशश्च मे रश्मिश्च मे रा ద్రవ్యశ్యమి ధిపతిశ్యమ ఉపాగుంశుశ్యమి అంతర్యామశ్యమ ఐంద్రవాయవశ్యమి మైత్రావరుణశ్యమ ఆశ్వినశ్యమి ప్రతి ప్రస్థానస్య మే శుక్రస్య మే మంతే శమ ఆగ్రయనస్య మే వైశ్వదేవస్య మే ధ్రువస్య మే వైశ్వానరస్య మరుతు గ్రహస్య మే దిగ్రాహ్యాశ్చ ఐంద్రాజ్ఞశ్చ మే వైశ్వదేవస్య మే మరుత్వదీయాశ్చ మే మాయేంద్ర ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్నీవతశ్చ మే హార్యోజనశ్చ మే ఇగ్మశ్చ మే బర్హిశ్చ మే వేదశ్చ మే ధృష్ణ్యాశ్చ మే శ్రుతశ్చ మే చమసాశ్చ మే గ్రావాణశ్చ మే స్వరవశ్చ మముపరవాశ్చ మే దిశవనే చ మే ద్రోణకలశశ్చ మే వాయవ్యాని చ మే పోతవ్రశ్చ మాదవనీయశ్చ ఆగ్నేత్రం చ మే హవిర్ద్వారం చ మే గృహాశ్చ మే సదశ్చ మే పురోడాశాశ్చ మే పచతాశ్చ మే వృదశ్చ మే స్వగాకారశ్చ మే అగ్నిశ్చ మే ధర్మశ్చ మేర్కర్శ్చ మే శౌర్యశ్చ మే ప్రాణశ్చ మే స్వమేధశ్చ మే ప్రతివేశ మే దితిశ్చ మే దితిశ్చ మే ద్యౌశ్చ మే చక్వరీరంగులయోదిశ్చ మే యజ్ఞేన కల్పంతామృక్ష మే సామశ్చ మే స్తోమశ్చ మే యజుశ్చ మే దీక్షాశ్చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయోర్వృష్ట్యా బృహద్రదంతరే చ మే యజ్ఞేన కల్పేతాం గర్భాశ్చ మే వత్సాశ్చ మే త్రయవేశ్చ మే త్రయవే చ మే దిత్యవాచ్చ మే దిత్యౌహే చ మే పంచావిశ్చ మే పంచావే చ మే త్రివత్సశ్చ మే త్రివత్సా చ మే తుల్యవాచ్చ మే తుల్యౌహే చ మే పష్టవాచ్చ మే పష్టౌహే చ మోక్షా చ మే వశా చ మృషభశ్చ మే వేహశ్చ మే నడ్వాంచ మే ధేనుశ్చ మయజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతాం భవానో యజ్ఞేన కల్పతాం వ్యానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతాం శ్రోత్ర యజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాగ్ యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకాశ మే త్రిశ్చ మే పంచ చ మే సప్త చ మే నవ చ ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ ఏక విగుంశతిశ్చ మే త్రయో విగుంశతిశ్చ మే పంచ విగుంశతిశ్చ మే సప్త విగుంశతిశ్చ మే నవ విగుంశతిశ్చ ఏక త్రిగుంశచ్చ మే త్రయస్త్రిగుంశచ్చ మే చతస్రశ్చ మే స్తౌ చ మే ద్వాదశ చ మే షోడశ చ మే విగుంశతిశ్చ మే చతుర్విగుంశతిశ్చ మే స్వావిగుంశతిశ్చ మే ద్వాత్రిగుంశచ్చ మే షత్రిగుంశచ్చ మే చత్వారిగుంశచ్చ మే చతుశ్చత్వారిగుంశచ్చ మే ష్టాచత్వారిగుంశచ్చ మే వాజస్య ప్రసవశ్చ పిజస్య క్రతుశ్చ సువశ్చ మూర్ధాశ్చ వ్యస్నేయశ్చాంత్యాయనశ్చాంత్యశ్చ భువనశ్చాధిపతిశ్చ इरा देवहोर्मनुर्यज्ञने बृहस्पतिरुक्ता मदानि सगुंसि षद्वश्वे देवासोक्तवाच प्रतिविमातर्वा माहिगुंसि मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमते देवेभ्यो वाच मृत्यातगुं श्रुश्रूषेण्या मनुष्येभ्यस्तम्बा देवा अवन्तु शोभाय पितरो नु मदन्तु ॐ शान्ति 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 ॐ तच्छयोरावृणीमहे यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु केशजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति 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 सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्छपव्यम् उतामृतत्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अतो जायागुश्च पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्वौ दैत्पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत शासनानशने अभि तस्माद्विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवायज्ञमतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म इत्म शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिद कृताः देवायद्यज्ञम् दन्धानाः अबद्धम् पुरुषम् पशुम् तम् यज्ञम् वरेषि प्रोक्षन्न पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यऋषयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् वृषदाज्यम् पशुभृस्तादिश्चक्रे वायव्यान आरण्या ग्राम्या तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोपयादतः गावोह जज्ञिरे तस्मात् तस्माज्जाता अजावय यत्पुरुषम् व्यददुः कविता व्यकल्पयन् मुखम् किमस्य कौ बाहु काहुरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ऊरु तदस्य यद्वैश्यः पद्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः च चक्षुःसूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्यासीदन्तरिक्षम् श्रेष्णोऽद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुमकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरा नामानि कृत्वा विवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः त्वमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते अनाकम् महिमानः सचन्ते यत्र पूर्वे साध्य सन्ति देवाः अद्य सम्भूत प्रतिवेरसा च विश्वकर्मणः समवर्ततादि तस्य त्वस्त्वा विदद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते अनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य देहात् परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्महे रुचम् रामम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे रेष्यते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणाम् अमुम् मनिषाणा सर्वम् मनिषाणाम् तच्छयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ओर्ध्वम् दिगातुपेशजम् शन्नो अस्त्वद्विपदे शं चतुष्पदे ओ शान्ति 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 ॐ सहनावतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ब्रह्मविदाप्नोति परम् तदेशाभ्युक्ता सत्यम् ज्ञानमनन्तम् ब्रह्म यो वेदनिहितम् गुहायाम् परमेभ्यो मन् सोऽश्नुते सर्वान् कामान् सः ब्रह्मणाधिपश्चितेति तस्माद्वा एतस्मादात्मन आकाशत्सम्भूतः ಸದ್ವಾಯೋ ವಾಯೋರಗ್ನಿಃ ಅಗ್ನೇರಾಪಃ ಅದ್ಯ ಪೃಥಿವೀ ಪೃಥಿವ್ಯಾ ಓಷಧಯಃ ಓಷಧೀಭ್ಯೋನ್ನಂ ಅನ್ನಾತ್ ಪುರುಷಃ ತವಾ ಏಷ ಪುರುಷೋನ್ನರ ಸಮಯಃ ತಸ್ಯೇದಮೇವ ಶಿರಃ ಅಯಂ ದಕ್ಷಿಣ ಪಕ್ಷಃ ಅಯಮುತ್ತರ ಪಕ್ಷಃ ಅಯಮಾತ್ಮಾ ಇದಂ ಪುಚ್ಛಂ ಪ್ರತಿಷ್ಠಾ ತದಪ್ಯೇಷ ಶ್ಲೋಕೋ ಭವತಿ ಅನ್ನಾದ್ವೈ ಪ್ರಜಾ ಪ್ರಜಾಯಂತೆ ಯಾಕಾಚ ಪೃಥಿವೀ ಗುಶ್ರತಾಃ ಅಥೋ ಅನ್ನೇ ನೈವ ಜೀವಂತೆ ಅಥೈನದಪಿ ಅಂತ್ಯಂತತಃ ಅನ್ನಗುಂಹಿ ಭೂತಾನಾಂ ಜ್ಯೇಷ್ಠಂ ತಸ್ಮಾತ್ ಸರ್ವೌಷಧಮುಚ್ಯತೆ ಸರ್ವಂ ವೈತೇನ್ನಮಾಪ್ನುವಂತೆ ಯೇನಂ ಬ್ರಹ್ಮೋಪಾಸತೆ ಅನ್ನಗುಂಹಿ ಭೂತಾನಾಂ ಜ್ಯೇಷ್ಠಂ ತಸ್ಮಾತ್ ಸರ್ವೌಷಧಮುಚ್ಯತೆ ಅನ್ನಾತ್ ಭೂತಾನಿ ಜಾಯಂತೆ ಜಾತಾನ್ಯನ್ನೇನ ವರ್ಧಂತೆ ಅದ್ಯತೇತಿ ಚ ಭೂತಾನಿ ತಸ್ಮಾದನ್ನಂ ತದುಚ್ಯತ ಇತಿ ತಸ್ಮಾದ್ವಾ ಏತಸ್ಮಾದನ್ನರ ಸಮಯಾತ್ ಅನ್ಯೋಂತರಾತ್ಮಾ ಪ್ರಾಣಮಯಃ ತೇನೈಷ ಪೂರ್ಣಃ ಸವಾ ಏಷ ಪುರುಷ ವಿಧ ಏವ ತಸ್ಯ ಪುರುಷ ವಿಧತಾ ಅನ್ವಯಂ ಪುರುಷ ವಿಧಃ ತಸ್ಯ ಪ್ರಾಣ ಏವ ಶಿರಃ ವ್ಯಾನೋ ದಕ್ಷಿಣ ಪಕ್ಷಃ ಅಪಾನ ಉತ್ತರ ಪಕ್ಷಃ ಆಕಾಶ ಆತ್ಮಾ ಪೃಥಿವೀ ಪುಚ್ಛಂ ಪ್ರತಿಷ್ಠಾ ತದಪ್ಯೇಷ ಶ್ಲೋಕೋ ಭವತಿ ಪ್ರಾಣಂ ದೇವಾ ಅನುಪ್ರಾಣಂತಿ ಮನುಷ್ಯಾ ಪಶವಶ್ಚಯೇ ಪ್ರಾಣೋ ಹಿ ಭೂತಾನಾಮಾಯೋ ತಸ್ಮಾತ್ ಸರ್ವಾಯುಷಮುಚ್ಯತೆ ಸರ್ವಮೇವ ತಾಯುರ್ಯಂತೆ ಯೇ ಪ್ರಾಣಂ ಬ್ರಹ್ಮೋಪಾಸತೆ ಪ್ರಾಣೋ ಹಿ ಭೂತಾನಾಮಾಯೋ ತಸ್ಮಾತ್ ಸರ್ವಾಯುಷಮುಚ್ಯತ ಇತಿ ತಸ್ಯೈವ ಏವ ಶರೀರ ಆತ್ಮಾ ಯಪೂರ್ವಸ್ಯ ತಸ್ಮಾದ್ವಾ ಏತಸ್ಮಾತ್ ಪ್ರಾಣಮಯಾತ್ ಅನ್ಯೋಂತರ ಆತ್ಮಾ ಮನೋಮಯಃ ತೇನೈಷ ಪೂರ್ಣಃ ಸವಾ ಏಷ ಪುರುಷ ವಿಧ ಏವ ತಸ್ಯ ಪುರುಷ ವಿಧತಾಂ ಅನ್ವಯಂ ಪುರುಷ ವಿಧಃ ತಸ್ಯ ಯಜುರೇವ ಶಿರಃ ಋಗ್ದಕ್ಷಿಣ ಪಕ್ಷಃ ಸಾಮೋತ್ತರ ಪಕ್ಷಃ ಆದೇಶ ಆತ್ಮಾ ಅಧರ್ವಾಂಗಿರಸ ಪುಚ್ಛಂ ಪ್ರತಿಷ್ಠಾ ತದಪ್ಯೇಷ ಶ್ಲೋಕೋ ಭವತಿ ಯಥೋ ವಾಚೋ ನಿವರ್ತಂತೆ ಅಪ್ರಾಪ್ಯ ಮನಸಾ ಸಹ ಆನಂದಂ ಬ್ರಹ್ಮಣೋ ವಿದ್ವಾನ್ ನ ವಿಭೇದಿ ಕದಾಚನೇತಿ ತಸ್ಯೈಷ ಏವ ಶರೀರ ಆತ್ಮಾ ಯಪೂರ್ವಸ್ಯ ತಸ್ಮಾದ್ವಾ ಏತಸ್ಮಾನ್ ಮನೋಮಯಾತ್ ಅನ್ಯೋಂತರ ಆತ್ಮಾ ವಿಜ್ಞಾನಮಯಃ ತೇನೈಷ ಪೂರ್ಣಃ ಸವಾ ಏಷ ಪುರುಷ ವಿಧ ಏವ ತಸ್ಯ ಪುರುಷ ವಿಧತಾ ಅನ್ವಯಂ ಪುರುಷ ವಿಧಃ ತಸ್ಯ ಶ್ರದ್ಧೈವ ಶಿರಃ ಋತಂ ದಕ್ಷಿಣ ಪಕ್ಷಃ ಸ सत्यमुत्तरः पक्षः योग आत्मा महापुच्छं प्रतिष्ठा तदप्येष श्लोको भवति विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासते विज्ञानं ब्रह्म चेद्वेद तस्माच्चेण प्रमाद्यते शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुत इति तस्यैष एव शरीर आत्मा यः पूर्वस्य तस्माद्वायेतस्माविज्ञानमयात् अन्योन्तर आत्मानन्दमयः तेनैष पूर्णः स वा एष पुरुषविद एव तस्य पुरुषविदता अन्वयम् पुरुषविदः तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः प्रमोद उत्तरः पक्षः आनन्द आत्मा ब्रह्मपुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति असन्मेव स भवति असद्ब्रह्मेति वेद चेत् अस्तिब्रह्मेति चेद्वेद सन्तमेलम् ततो विदुरिति तस्येष एव शारीर आत्मा यः पूर्वस्य अतातोनु प्रश्नाः उता विद्वानमुम् लोकम् प्रेत्य कश्चन गच्छति आहो विद्वानमुम् लोकम् प्रेत्य कश्चित् समश्नुता शोकामयत बहुस्याम् प्रजायेते स्वतपोतप्यत स्वतपस्तत्वा इदगुम् सर्वमदृजत यदिदम् किञ्च तत्सृष्ट्वा तदेवानुप्राविशत तदनुप्रविश्य सच्चच्चाभवत् निरुक्तम् च निरुक्तम् च निलयनम् च निलयनम् च विज्ञानम् च विज्ञानम् च सत्यम् चानृतम् च सत्यमभवत् यदिदम् किञ्च तत्सत्यमित्याचक्षते तदप्येष श्लोको भवति असद्वा इदमग्र आसीत् ततो वै सदजायत तदात्मानग्रस्वयमकुरुत तस्मात् तत्सुकृतमुच्यत इति यद्वै तत्सुकृतम् रसो वै सः रसगृह्येवायम् लब्ध्वानन्दे भवति को ह्येवान्यात् क प्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्द याति यदा ह्येवैष एतस्मिन्नदृश्येनाख्ये निरुक्ते निलयने भयम् प्रतिष्ठाम् विन्दते अतसो भयम् गतो भवति यदा ह्येवैष एतस्मिन्नुदरान्तरम् कुरुते अत तस्य भयम् भवति तस्ते भयम् विदुषो मन्वानः स्यात् तदप्येष श्लोको भवति भीषास्माद्वारः पवते भीषो देति सूर्यः भीषास्मादग्निश्चेन्द्रस्य मृत्युर्धावति पञ्चम इति सैषानन्दस्य मेवागुन्ना भवति युवाच्चाच्चायुवाध्यायकः आशिष्टो दृष्टो बलिष्ठः तस्येयं पृथिवी सर्वो वित्तस्य पूर्णा स्यात् स एको मानुष आनन्दः ते ये शतं मानुषा आनन्दाः स एको मनुष्य गन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतं मनुष्य गन्धर्वाणामानन्दाः स एको देवगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतं देवगन्धर्वाणामानन्दाः स एकः पितॄणां चिरलोकलोकानामानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः स एक आजानजानां देवानामानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतमाजानजानां देवानामानन्दाः स एकः कर्म देवानां देवानामानन्दः ये कर्मणा देवानपियन्ते श्रोत्रियस्य चाकामहतस्य ते ये शतं कर्म देवानां देवानामानन्दाः स एको देवानामानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतं देवानामानन्दाः स एक इन्द्रस्यानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतमिन्द्रस्यानन्दाः स एको बृहस्पतेरानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतं बृहस्पतेरानन्दाः स एकः प्रजापतेरानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्य स यश्चायं पुरुषे यश्च सावादित्ये स एकः स य एवंवित् अस्माल्लोकान्वेत्या एतमन्नमयमात्मानमुपसङ्क्रामति एतं प्राणमयमात्मानमुपसङ्क्रामति एतं मनोमयमात्मानमुपसङ्क्रामति एतं विज्ञानमयमात्मानमुपसङ्क्रामति एतमानन्दमयमात्मानमुपसङ्क्रामति तदप्येष श्लोको भवति यतो वाचो निवर्तन्ते अप्राप्यमनसा सह आनन्दो ब्रह्मणो विद्वान् न विवेति कुतश्च नेति एतगुं हवामनतपति किमहगुं साधुना करवम् किमहं पापमकरवमिति स य एवं विद्वानेते आत्मानग्स्पृणुते उभे हे वैष एते आत्मानग्स्पृणुते य एवं वेद इत्युपनिषत् सहनाववतो सहनौ भुनत्तो सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ Shanti Shanti.